अभिवादनशीलः वर्धते। अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि संप्रवर्धन्ते कीर्तिरायुर्यशोबलं प्रशस्तानां सेवा निषेवते प्रशस्तानि निन्दितानि च सेवते अनास्तिकः श्रद्धधानात् एतत् पण्डितलक्षणं। विद्यार्थीनां सप्तदोषाः आलस्यं मदमोहौ च चापलङ्गोष्ठिरेव च स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च एते वै सप्तदोषाश्चुस्सदा विद्यार्थिनां मताः। विद्यायाः शत्रवः असूयैकपदं वृत्तिरतिवादश्रियो वधः अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः। विद्यार्थी वा सुखार्थी वा सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजे सुखम्।